शुद्धपठनाम रजककथा सुगुप्तं रक्षमाणोऽपि दर्शयन्तरुणं वपुः व्याघ्रचर्म प्रतिच्छन्नो वक्तेरसभोहतः। कस्मिंश्चित् अधिष्ठाने शुद्धपटु नाम रजकः प्रत्यवसति स्म। तस्य च गर्दभ एकोऽस्ति, सोऽपि घासाभावाद् अतिदुर्बलतं गतः। अथ तेन रजकेनाटव्यां परिभ्रमता मृतव्याघ्रो दृष्टश्चिन्तितञ्च, अहो शोभनम् आपतितम्, अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषु उत्स्रक्ष्यामि। तेन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रपाला एनन्न निष्कासयिष्यन्ति। तथानुष्ठिते रासभो यथेच्छया यवभक्षणं करोति, प्रत्युषे भूयोऽपि रजकः स्वाश्रयं नयति। एवं गच्छता कालेन स रासभः पीवरतनुर्जातः, कृच्छ्राद्बन्धनस्थानमपि नीयते। अथान्यस्मिन्नहनि स दूराद् रासभीशब्दम् अशृणोत्, तच्छ्रवणमात्रेणैव स्वयं शब्दयितुम् आरब्धः। अथ ते क्षेत्रपाला रासभोऽयं व्यक्कचर्म प्रतिच्छन्न इति ज्ञात्वा लघुदशरपाषाणप्रहारैस्तं व्यापादितवन्तः।